एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः सर्वकारेण संघटितेन उच्चस्तरीयार्थिक क्षेत्र सुधार परामर्शनायोगेन उपप्रधानार्थमन्त्रिणः विष्णुप्रसाद पौडेलस्य समक्षम् ह्य अन्तरिम प्रतिवेदनम् अर्पितम् वर्तते। पूर्वार्थ सचिवस्य रामेश्वर खनालस्य अध्यक्षतायां संघटितेन आयोगेन अर्थतन्त्रस्य सुधाराय सर्वकारेण तत्कालं दीर्घकालिक रूपेण च विधातव्यानां कार्याणां परामर्शनं समाविश्य प्रतिवेदनम् अर्पितं वर्तते। प्रतिवेदने अर्थतन्त्रं गतिशीलं विधातुं सर्वकारेण तत्कालं विधातव्याः विषयाः सर्वकारीयदायित्वं प्रदानाय अवशिष्टस्य वित्तस्य विषय समस्यायां वर्तमानेभ्यः वित्तीयक्षेत्रस्य वास्तविक ऋणिभ्यः सहजीकरणस्य विषय आर्थिक विषयाणां सहजीकरणाय विधेः निर्माणस्य विषयश्च सपरामर्शनं समाविष्टाः सन्ति। एवमेव समस्याग्रस्त सहकारी क्षेत्रस्य सम्बोधनम् संचित धनगत व्ययस्य वृद्धि विपदा भग्नानाम् भौतिक पूर्वाधाराणाम् पुनर्निर्माणम् विकासायोजनानाम् कृते भूम्याः अधिग्रहणस्य क्रमे जनतायै प्रदेय वित्तम् यथाशीघ्रम् प्रदेयम् चेत्यादि विषयाश्च प्रतिवेदने समाविष्टाः सन्ति। मन्त्रिपरिषदः गताश्विन मासस्य एकविंश दिवसस्य उपवेशेन पूर्वार्थ सचिवस्य खनालस्य अध्यक्षतायां राष्ट्रिय योजना योगस्य सदस्यस्य डाक्टर प्रकाश कुमार श्रेष्ठस्य त्रिभुवन विश्वविद्यालयस्य अर्थशास्त्र केन्द्रीय विभागस्य प्रमुखस्य प्राध्यापकस्य डाक्टर रामप्रसाद ज्ञवालिनः अर्थविदः डाक्टर विश्वास गौचन इत्यस्य नित्यानुसन्धान प्रतिष्ठानस्य वरिष्ठानुसन्धान कर्त्र्याः डाक्टर कल्पना खनालस्य नेसाम नैरक्षेत्रस्य त्रयाणाम् जनानाम् च सदस्यत्वे च आयोगः संघटितः आसीत्। सघनकुहरस्य शीतलहरियाश्च कारणेन अवरूद्धे पूर्व पश्चिम राजमार्गस्य अन्तर्गते बुटवल नारायणगढ़ मार्गे दाउने स्थाने एकपक्षतः यातायातम् सञ्चालितमस्ति। पश्चिम नवलपरासी जनपदस्य वर्धघाट नगरपालिकायाः चतुर्थवडा क्षेत्रस्य दाउने स्थाने खुर्सानी खोलिखायाम् सघनकुवरस्य शीतलहरियाश्च कारणेन मार्गस्य सेन्दी भवनानन्तरम् मार्गः पक्षद्वयाद् अवरुद्धः आसीत्। नैरन्तस्य प्रयासस्य पश्चात् मार्गखण्डोऽसौ एकपक्षतः सञ्चालितो वर्तते इति नवलपरासी जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः सूचनाधिकारी रमेश बोहरा असूचयत। ह्य प्रातः सप्तवादनात् पूर्णरूपेण अवरुद्ध मार्गोऽसौ ह्य दिवा द्विवादनात् एकपक्षतः सुचारू सञ्चालितः सन्नपि सघनकुवरस्य शीतलहरियाश्च कारणेन यातायातस्य सञ्चालनाय काठिन्यम् सम्भूतम् इति नवलपरासी जनपदस्य प्रमुख जनपदाधिकारी स्किम श्रेष्ठः रेडियो नेपालम् अज्ञापयत्। एवमेव ताप्लेजुङ जनपदे सामान्यतः वृष्ट्या सहैव जनपदस्य उच्च हिमालयीय क्षेत्रेषु परह्यः दिवसात् हिमपातः जायमानो वर्तते। सहस्रत्रयम् चतुर्नवत्यधिक सप्तशतञ्चेति मीटरमिते उच्चस्थले स्थितेन पाथीभरादेव्याः मन्दिरेण सह जनपदस्य उत्तरदिशा उच्चक्षेत्रेषु हिमपातस्य अनन्तरम् तत्रत्यम् जनजीवनम् प्रभावितम् वर्तते। ताप्लेजुङ जनपदेन सह संखुवासभा जनपदस्य उपरितन क्षेत्रेष् अपि हिमपातस्य कारणेन जनजीवनम् प्रभावितम् अस्तीति ज्ञापितम् वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयेन अनुमतिपत्रस्य नवीकरणम् अविदत्यः स्वास्थ्य संस्थाः दण्डयिष्यन्ति। मन्त्रालयेन ह्य सूचनाम् प्रकाश्य नैज स्वास्थ्य संस्थाः सर्वकारीयाः सर्वकारीयेतराः सामुदायिक चिकित्सालयाः अन्याः स्वास्थ्य संस्थाश्च अनुमतिपत्रस्य नवीकरणम् विधायैव सञ्चालनम् विधातुम् संसूच्य नवीकरणम् अविधत्यः स्वास्थ्य संस्थाः दण्डयिष्यन्ते इति ज्ञापितमस्ति। कतिपय सर्वकारीयेतर स्वास्थ्य संस्थाः सामुदायिक स्तरात् सञ्चालिताः स्वास्थ्य संस्थाश्च नवीकरणेन विनैव सञ्चाल्यमानाः सन्तीति वेदनायाः प्राप्तेः पश्चात् मन्त्रालयेन नवीकरणाय पत्राचारम् विहितमस्तीति मन्त्रालयस्य प्रवक्ता डाक्टर प्रकाश बुढाथोकी अवोचत। संघीयता सबलीकरण राष्ट्रिय विषय समित्या युवक क्रीडा मन्त्रालयस्य अन्तर्गतानाम् राष्ट्रिय गौरवस्य आयोजनानाम् निर्माणस्य कृते स्रोतः सुनिश्चेत् सर्वकारः निर्दिष्टो वर्तते। समितेः ह्या उपविष्टेन उपविशेन मूलपानी क्रिकेट क्रीडा रंगशालायाः गिरिजा प्रसाद कोइराला क्रिकेट रंगशालायाश्च निर्माणाय श्रोतः सुनिश्चेतुम् अर्थ मन्त्रालयः निर्दिष्टो वर्तते। समित्या क्रीडा प्रांगणस्य निर्माणाय वातावरणीय प्रभावस्य मूल्यांकनस्य कार्यं शीघ्रं समापयितुं वन वातावरण मन्त्रालयश्च निर्दिष्टो वर्तते। उपवेशे युवक क्रीडा मन्त्री तेजुलाल चौधरी क्रीडा पूर्वाधारस्य निर्माणाय पर्याप्त वित्तस्य अभावस्य कारणेन समित्या समस्या जायमाना स्थिति भासमानः क्रीडा क्षेत्रं प्राथमिकतायां संस्थाप्य वित्तस्य व्यवस्था विधेयति प्रत्यपादयत्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः कथयति विद्यालयस्य पाठ्यक्रमेषु स्वास्थ्य जनचेतनायाः विषय परिमार्जनीयः। शिक्षा विज्ञान प्रविधि मन्त्रिणा विद्या भट्टराय इत्यनया सह ह्य मन्त्रालये विहितायां मेलवार्तायां मन्त्री पौडेलः विद्यालयस्य पाठ्यक्रमे स्वास्थ्य जनचेतना सम्बद्ध विषयस्य परिमार्जनाय विज्ञ समितिं निर्माय कार्यं विधातुं सहकार्याय प्रस्तावं प्रस्तोत। मन्त्री पौडेलः पाठ्यक्रमे स्वास्थ्य भोजनस्य मादक पदार्थ सेवन विरुद्धस्य सञ्चेतनायाः विषयाश्च समावेष्टुम् विषयाञ्च समावेष्टुम् परामृशत। तदवसरे मन्त्रिणः पौडेलस्य प्रस्तावस्य प्रशंसां कुर्वाणा शिक्षामन्त्री भट्टराई अतिरिक्तं गृहकार्यं कृत्वा कार्यमग्रे वर्धिष्यते इति समाश्वासयत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमला दाहाल प्रचण्ड शान्ति प्रक्रियायाः संक्रमणकालिका न्यायस्य च अवशिष्ट कार्याणि समापयितुं बलसर्जनस्य आवश्यकतां दर्शयति। ह्य काष्ठमण्डपे आयोजिते शान्ति प्रक्रियया विलोपित नागरिकाणां सार्वजनिकरणेन च सह सम्बद्ध विषयके कार्यक्रमे अध्यक्ष प्रचण्ड शान्ति प्रक्रियां निष्कर्षे प्रापयितुं सर्वै बलसर्जनं विधेयम् इति अवस्था सृष्टास्तीति असूचयत। अध्यक्ष प्रचण्ड शान्ति प्रक्रियाया विषयं संक्रमणकालिक न्याय सम्बद्धं विषयं च शीघ्रं निष्कर्षे प्रापयितुं सर्वै राजनीतिक दलैः दायित्ववायवीर भाव्यम् इत्यत्र बलं प्रादात्। कार्यक्रमे एमाले दलस्य नेता अग्नि खरेल पूर्व विधि न्याय संसदीय विषय मन्त्री गोविन्द पन्थी नेपाल बार एसोसिएशन संघस्य अध्यक्ष गोपाल कृष्ण घिमिरे च विचारम व्यक्तवन्तः। ऊर्जा जलस्रोत सेचन मन्त्री दीपक खड्का उत्पादितायाः विद्युतः ऊर्जस्य वा आपणस्य सुनिश्चयनात् विद्युत क्षेत्रे निवेशनं कर्तुं नैज क्षेत्रमनुरुणद्धि। विद्युत नियमनायोगात् जायमानस्य कार्यसम्पादनस्य प्रविधि मैत्रिणः सम्पादनस्य उद्देश्येन आयोगेन निर्मितायाः अभिलेख व्यवस्थापन प्रणाल्याः शुभारम्भं विदधानो मन्त्री खड्का उत्पादित विद्युतः आपणीकरणाय समस्या नास्ति त्यतः ऊर्जा क्षेत्रे निवेशनं कर्तुं सर्वान् अनुरुणत। ऊर्जा मन्त्री खड्का सर्वकारेण 35,000+ ख्रीष्टवर्षं यावद् 28,000 पञ्चशतञ्चेति मेगावाट मितायाः विद्युत उत्पादनस्य लक्ष्यं गृहीतमस्ति इति भासमानः एतद् लक्ष्यं पूरयितुम् एवं विधैः प्रविधिभिः सहयोगो भविष्यति इति विश्वासं व्यक्तवान्। मध्य प्रदेश सर्वकारेण प्रदेशे विभिन्नान्दोलनानां क्रमे त्यक्त प्राणानां परिवाराणां निःशुल्कं स्वास्थ्य सुरक्षण कोषे संयोजनं विधीयते। ह्य जनकपुरे आयोजिते पत्रकार सम्मेलने प्रदेशस्य गृह संचार विधि मन्त्री राजकुमार लेखी प्रदेशस्य अष्टानां जनपदानां सहस्रस्य एकाशीतेश्च हुतात्मनां परिवाराः अस्मिन् एव आर्थिक वर्षे स्वास्थ्य सुरक्षण कोषेण सह निःशुल्कं संयोज्यन्ते इति असूचयत। मन्त्री लेखी स्वास्थ्य सुरक्षण कोषेण आबद्धतायै स्वास्थ्य सुरक्षण समित्या सह संविधान कृत्वा मधेस हुतात्म प्रतिष्ठानस्य माध्यमेन हुतात्मनां तथ्याङ्क संकलनस्य कार्यं जायमानम् अस्ति इति असूचयत।